भजामः पादुकेयाभ्यां भरतस्याग्रजस्तदा प्रायप्रतिप्रयाणाय प्रास्थानिकमकल्पयति राज्यं विहाय रघुवंशमहीपतीनां पौरांशपादरसिकान् पृथिवीं च रक्तां त्वामेव हन्त चरणावनि सम्प्रयास्यन् आलम्बत प्रथममुत्तरकोसलेन्द्रः प्राप्ते प्रयाणसमये मणिपादरक्षे पौराणवेक्ष्य भवति करुणाप्रलापान् मञ्जुप्रणादमुखरा विनिवर्तनार्थं रामं पदग्रहणपूर्वमयाचते वा मत्वा तृणाय भरतो मणिपादरक्षे रामेण तां विरहितां रघुराजधानीं त्वामेव सप्रणयमुज्जयिनीमवन्तीं मेने महोदयमयीं मधुरामयोध्यां रामात्मनः प्रतिपदं मणिपादरक्षे विश्वम्भरस्य वहनेन परीक्षितां त्वां विश्वस्य देवि वहने विनिवेशयिष्यन् विश्रद्ध एव भरतो भवतीं ययाचे भक्त्या परं भवतु तद्भरतस्य साधोः त्वत्प्रार्थनं रघुपदो मणिपादरक्षे केनाशयेन समुनिः परमार्थदर्शी भद्राय देवि जगतां भवतीमवादीति रामे वनं व्रजति पङ्क्तिरथे प्रसुप्ते राज्यापवादचकिते भरते तदानीम् आश्वासयेत्कैव कोसलवासिनस्तानि सीदेव चेत् त्वमपि साहसवृत्तिरासीः पादावनि प्रभवतो जगतां त्रयाणां रामादपि त्वमधिकानि यतं प्रभावात् नो चेत् कथन्नु भरतस्य तमेव लिप्सोः प्रत्यायनं परिपणं भवति भवित्री मन्ये नियुज्य भवतीं मणिपादरक्षे पाष्णिग्रहस्य भरतस्य निवारणार्थं रत्नाकरं सपदि गोष्पदयन् विजिज्ञे रामक्षणेन रजनीचरराजधानीं पादावनि प्रभुतरान् अपराधवर्गानि सोढुं क्षमत्वमसि मूर्तिमते क्षमैव यत्त्वां विहाय निहताः परिपन्थिनस्ते देवेन दाशरथिना दशकण्ठमुख्याः वाक्ये गरीयसि पितुर्विहितेऽप्यतृप्त्या मातुर्मनोरथमशेषमवन्ध्ययिष्यन् मन्ये तदा रघुपतिर्भरतस्य तेने मातस्त्वयैव मणिमौळिनिवेशलक्ष्मीं परम्बुजद्विगलितां परमस्य पुंसः त्वामादरेण विनिवेश्य जटाकलापे अङ्गी चकार भरतो मणिपादरक्षे गङ्गाधिरूढशिरसो गिरिशस्य कान्तिम् अविकलमधिकर्तुं रक्षणे सप्तलोक्याः रघुपतिचरणेनन्यस्तदिव्यानुभावाम् अभजत भरतस्त्वामञ्जसा पादरक्षे मणिमकुटनिवेशत्यागधन्येन मूर्ध्ना इयमपि कलयोगक्षेमसिद्ध्यै प्रजानाम् अलमिति भरतेन प्रार्थितामादरेण रघुपतिमधिरोहन्नभ्यषिञ्जत् स्वयं त्वां शरणनखमणीनां चन्द्रिकानिध्यरेण प्रणयिनि पदपद्मे गाढमाश्लिष्यति त्वां वीधिसुतकथितं तद्वैभवन्ते विदन्तः अनुदिनमृषयस्त्वामर्चयन्त्यग्न्यकारे रघुपतिपदरक्षे रामगिर्याश्रमस्थाः नियतमधिरुरोह त्वामनाधेयशक्तिं निजचरणसरोजे शक्तिमाधातुकामहितरता त्वां न्यस्य रामो विजह्रे दृशदुपचितभूमौ दण्डकारण्यभागे रघुपतिपदपद्माद्रत्नपीठे निवेष्टुं भरतशिरसि लग्नां प्रेक्ष्यपादावनि त्वां परिणतपुरुषार्थः पौरवर्गस्वयन्ते विधिमभजत सर्वो वन्दिवैदालिकानाम् अनन्यराजन्यनिवेशनिष्ठां ಚಕಾರ ಪೃಥ್ವೇಂ ಚತುರರ್ಣವಾಂತಾಂ ಭ್ರಾತುರ್ಯಾಸೋರ್ಭರತಃ ಸದಾ ತ್ವಾಂ ಮೂರ್ಧ್ನಾವಹನ್ ಮೂರ್ತಿಮತೀಮಿವಾಜ್ಞಾಂ ಯದ್ಭ್ರಾತ್ರೇ ಭರತಾಯ ರಂಗಪತಿನಾ ರಾಮತ್ವವಾದಸ್ತುಷಾ ನಿತ್ಯೋಪಾಸ್ಯ ನಿಜಾಂಘ್ರಿ ನಿಷ್ಕ್ರಿಯತಯಾ ನಿಶ್ಚಿತ್ಯ ವಿಶ್ರಾಣಿತಂ ಯೋಗಕ್ಷೇಮಂ ಸಮಸ್ತ ಜಗತಾಂ ಯದ್ಗೀಯತೆ ಯೋಗಿಭಿಃ ಪಾದತ್ರಾಣಮಿದಂ ಮಿತಂ ಪಜಗಥಾ ಮನ್ಹಾಯ ಮೇ ನಿನ್ಹುತಾಂ ಭರತಸ್ಯೇವ ಮಮಾಪಿ ಪ್ರಶಮಿತ ವಿಶ್ವಾಪವಾದ ದುರ್ಜಾತ ಶೇಷೇವ ಶಿರಸಿ ನಿತ್ಯಂ ವಿಹರತು ರಘುವೀರ ಪಾದುಕೆ ಭವತಿ.